जातस्य हि ध्रुवो मृत्युः
जातस्य हि ध्रुवो मृत्युः
ध्रुवं जन्म मृतस्य च
ध्रुवं जन्म मृतस्य च
तस्मादपरिहार्येऽर्थे
तस्मादपरिहार्येऽर्थे
न त्वं शोचितुमर्हसि
न त्वं शोचितुमर्हसि।